किं विजा यत्नभावाजसा देवी यत्सर्वा यदुद्भवा तत्सर्वं शतमिच्छामि त्वत्त्वाप्यं भविदाम्बरा शिरोवाजा यद्येव सा जगन्मूर्तिस्तया सर्वमिदं ततम् तथापि तत्समुत्पत्तिर्बहुधा श्रूयताम् मम एवाधाङ्गार्यसिद्ध्यर्थमाविर्भवति सा यदा उत्पन्नेति तथा लोके सा नित्याप्यभिधीयते लोकनिद्राय यदा विष्णुर्जगत्येकान्नवीकृते शेषमभजत्कल्पान्ते भगवान् प्रभुः तदाद्यावसरौ खादौ विख्यातौ मधुकैटभौ विष्णुकर्णमलोद्भूतौ हन्तम् ब्रह्माणमुद्यतौ सनाभिगमले विष्णो स्थितो ब्रह्मा प्रजापतिः युष्मादावसरौ चाग्नौ सुप्तम् च जनार्दनम् पुष्टावजोकनिद्रान्तामेकाग्रहृदयस्थितः विलोचनार्थाय हरे हरिणे प्रकृतालयाम् विश्वेश्वरीम् जगद्धात्रीम् स्थितिसंहारकारिणीम् निर्द्याम् भगवतीम् विष्णोरतुलाम् तेजसः प्रभुः क्षरे नित्ये त्रिधा मार्गात्मिका स्थिता अर्थमात्रा स्थिता नित्यादा नित्याद्या विशेषतः त्वमेव सन्ध्या सा वित्ते त्वम् देवि जननी परा त्वये तद्धार्यते विश्वम् त्वये तत्सृज्यते जगत् त्वये तत्पाल्यते देवि त्वत्स्यन्ते च सर्वदा विसृष्टो सृष्टिरूपात्वम् स्थितिरूपा च पालने तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये महाविद्या महामाया महामेधा महास्मृतिः महामोहा च भवति महादेवी पञ्च सर्वस्य गुणत्रयविभाविनी आरणात्रिर्महारात्रिर्माहरात्रिश्च दारुणा अंशेस्त्वमीश्वरे त्वम् ह्रेस्त्वम् बुद्धिर्बोधलक्षणा लज्जा पुष्ट्यस्तथा तुष्ट्यस्त्वम् शान्तिः क्षान्तिरेव च खड्गिनी शोदिनी घोरागदिनी चक्रिणी तथा शङ्खिणी चापिनी बाणभुषुण्डी परिखायुधा सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी परा पराणाम् परमा त्वमेव परमेश्वरी यच्च किञ्चित् क्वचित्त्वस्तु सदसद्वाखिलात्मिके तस्य सर्वस्य या शक्तिः साप्तम् किम् स्तूयसे तदा तया त्वया जगत्स्रष्टा जगत्प्राप्त्यो जगत् सोऽपि निद्रावशन्देतः तस्त्वाम् स्तोतुमिहेश्वरः विष्णुश्चरेरग्रहणरहमीशानरेव च कारितास्ते यतो तस्मान्तस्तोतुम् शक्यमाम् भवेत् सात्मविद्धम् प्रभावैश्चैरुदारैर्देवि संस्तुता मोहयेतो दुराधर्षावसुरौ मधुकैटभौ प्रबोधन्त जगत्स्वामी नीयतामच्युतो लघु बोधश्च क्रियतामस्य हन्तुमेतो महासुरौ విష్ణోః ప్రబోధనార్థాయ విహంతం మధుకైటభో నేత్రాస్య నాసికా బాహుహృదయేభ్యస్తథో రసః నిర్గమ్య దర్శనే తస్థో బ్రహ్మణా వ్యక్తజన్మనః ఉత్తస్థో చ జగన్నాథస్తయా ముక్తో జనార్దనః ఏకాన్యమేహి పంచవర్షసహస్రాణి బాహ ప్రహరణ విభుః తావత్ప్రతిపదోన్మత్తో మహామాయాభిమోహితో ఉత్తమంతో వదోస్మత్తో ప్రియతామితి కేశవం శ్రీభగవానువాచ భవేతామద్య మే తుష్టో మమ మధ్యా ఉభావపి హిరణ్యేన పంచిదాభ్యామితి తదా సర్వమాపోమయం జగత్ ఇలోక్యతాభ్యాం గదితో భగవాన్ కమలేక్షణః ఆరాంజహినయక్కార్వి సలిలేన పరిప్లుతా శిరువాచ తథేత్యుక్త్వా భగవతా శంఖచక్రగదాభృతా ్రేణ వైచ్ఛిన్నే దఖనే శిరసేతయోః ఏవమేషా సముత్పన్నా బ్రహ్మణా సంస్కృతా స్వయం ప్రభావమస్య దేవ్యాస్తు భూయశ్రుణు వదామి తే మార్కండేయపురాణే సూర్యసామన్యకే మన్వంతరే.